ओम सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपाते सभोमिं विश्वतो वृत्वा अत्यतिष्ठत् दशांगुलं पुरुष एवेदगुं सर्वं यद्भूतं यच्च भव्यं उदामृतत्पस्येषाणः यदन्नेनातिरोहति एतावानस्य महिमा अतोऽध्यायागश्च पुरुषः पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि त्रिपादूर्ध उदैत्पुरुषः पादोऽस्येहा भवात् पुनः ततो विश्वं व्यक्रामते साशनानशने अभि तस्माद्विराडजायत विराजो अधिपुरुषः स जातो अत्यरिच्यत पश्चाद्भूमिमतो पुरः यत्पुरुषेण हविषा देवायज्ञमतन्वत वसन्तो अस्यासीदाज्यं ग्रीष्मयद्भशरद्धविः सप्तास्यासन् परिधयः त्रिःसप्तसमिधः कृताः देवायद्यज्ञन्तन्वाणाः अबध्रन् पुरुषं पशुं तञ्जज्ञं बर्हिषि प्रोक्षण्ये पुरुषं जातमग्रतः तेन देवा अयजन्त साध्या ऋषयश्च ये तस्माद्यज्ञात् सर्वहुतः संभृतं पृषदाज्यं पशुगस्तागश्चक्रे वायव्याने आरण्यान् ग्राम्याश्च ये तस्माद्यज्ञात्सर्वहुतः ऋचः सामानि जज्ञिरे छन्दागुंसि जज्ञिरे तस्मात् यजुस्तस्मादजायत तस्मादश्वा अजायन्त एके च भयादतः गावो हजज्ञिरे तस्मात् तस्माज्जाता अजावयः यत्पुरुषं यदधुः कतिधा व्यकल्पयन् मुखं किमस्य कौ बाहु गावूरूपादा उच्येते ब्राह्मणोऽस्य मुखमासीत् बाहूराधिन्यः कृतः ऊरु तदस्य यद्वैश्यः पद्भ्यागुं शूद्रो अजायत चन्द्रमा मनसो जातः चक्षोः सूर्यो अजायत मुखादिन्द्रश्चाग्निश्च प्राणाद्वागिरजायत नाभ्या आसीदन्तरिक्षं शीर्षोद्यौः समवर्तत पद्भ्यां भूमिर्दिश श्रोत्रात् तथा लोकागुम् अकल्पयन् वेदाहमेतं पुरुषं महान्तम् आदित्यवर्णं तमसस्तु पारे सर्वाणि रूपाणि विचित्य धीरः नामानि कृत्वाभिवदन् यदास्ते धाता पुरस्ताद्यमुदा जहार शक्रः प्रविद्वान् प्रजितस्ततस्रः तमेवं विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते यज्ञेन यज्ञमगजन्त देवाः तानि धर्माणि प्रथमान्यासन् ते हनाकं महिमानः सचन्ते यत्र पूर्वे साध्याः सन्ति देवाः अभ्यः सम्भूतः पृथिव्यैरसाच्च विश्वकर्मणः समवर्तताधि तस्य त्वष्टा विदधद्रूपमेति तत्पुरुषस्य विश्वमाजानमग्रे वेदाहमेतं पुरुषं महान्तम् आदित्यवर्णं तमसः परस्तात् तमेवं विद्वानमृत इह भवति नान्यः पन्था विद्यते जनाय प्रजापतिश्चरति गर्भे अन्तः अजायमानो बहुधा विजायते तस्य धीराः परिजानन्ति योनिं मरीचीनां पदमिच्छन्ति वेधसः यो देवेभ्य आतपति यो देवानां पुरोहितः पूर्वो यो देवेभ्यो जातः नमो रुचाय ब्राह्मये रुचं ब्राह्मञ्जनयन्तः देवा अग्रे तदब्रुवन् यस्तैवं ब्राह्मणो विद्याते तस्य देवा असन्वसे ख्रीश्च ते लक्ष्मीश्च पत्न्यौ अहोरात्रे पार्श्वे नक्षत्राणि रूपम् अश्विनौ व्यात्तम् इष्टं मनिषाण अमुं मनिषाण सर्वं मनिषाण।